सह वामेन न उषो व्यच्छादु हितर्दिवः सह द्युम्नेन बृहता विभावरिराजादे विदास्वति अश्वावतेर्गोवतेर्विश्वसुविदो भूरिच्यवन्तवस्तवे उदीरज प्रतिमासो नृता उषश्चोदराधो मघोना उवासोषा उच्छाच्चनु देवी जीरारथानाम् ये अस्या आचरणेषु दध्रिरे समुद्रेण श्रभस्य वाः उषोजेते प्रजामेषु युञ्जते मनो दानाय सूरजाः अत्राह तत्कण्व एषाम् कण्वतमो नाम गृणाति नृणाम् आघाजोषे वसो नरयुषाजादिप्रभुञ्जति जरयन्ति व्रजनम् भद्वदी यत उत्पातयति पक्षिणाः विजासृजति सबनम् व्या अर्थिनः पदन्न भेत्योदति वजो न किष्टे भक्तिवांस आसते व्योष्टौ वाजिनीवति एषा युक्तपरावतः सूर्यस्योदयनादधि शतम् रथेभिः सुभघोषा इदम् विजात्यभिमानुषान् विश्वमस्यानामचक्षसे जगज्योतिष्कृणोति सोदरी अपद्वेषो मघोनी दुहिता दिव उषा उच्छदपसृधाः उष आभाहि भानुना चन्द्रेण दुहितर्दिवः आवहन्ते भोर्यस्मभ्यम् सौभगम् व्युच्छन्ति दिविष्टिषो विश्वस्य हि प्राणनम् जीवनम् त्वे विजदुच्छसि सोनरे सा नो रथेन बृहता विभावरिश्रुधिचित्रामघेहवम् उषो वाजम् हिवम् स्वयश्चित्रो मानुषे जने तेनावह सुकृतो अध्वराम् उभये त्वा गृणन्ति वह्नयः विश्वान् देवाम् आवह सोमपीतयेऽन्तरिक्षादुषस्त्वम् सास्मासुधागो मदश्वावदुख्या अमुषो वाजम् सुवीर्यम् यस्यारुषन्त अर्थजः प्रतिभद्रा अदृक्षत सा नो रजिम् विश्ववारम् सुपेशसमुषा ददातु सुज्ञम् ये चिद्धित्वा मृषजः पूर्व ऊतये जुहोरेवसेमहि सा नस्तोमाम् अभिगृणीहि राधसोषः शुक्रेण शोचिषा उषो यदद्य भानुना विद्वारा वृणवो दिवः प्रणो यच्छतादवृकम् प्रथच्छर्द्यः प्रदे विगोमतीरिषाः सन्नो राजा बृहता विश्वपेशसामिमिक्ष्वासमिळाभिरा सञ्जुम्नेन विश्वतुरोषो महि संवाजैर्वाजिनीवती